परं पठति प्रदोषे तस्य स्थिरां प्रजगजेन्द्र तुरङ्गयुक्ता लक्ष्मीं सदैव सुमुखीं प्रददाति शम्भुः। इति श्रीरावणकृतं शिवताण्डवस्तोत्रं सम्पूर्णम्।